प्रजापतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन्नोतिभिः सीदसाधनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातरिषु शिवतमा शिवम् बभूवते धनुः शिवाशरव्यायातवतयानो रुद्रमृणया याते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशीः यामिषुम् गिरिशन्तहस्ते विभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यदा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचदि वक्ता प्रथमो दैव्योऽभिषक् अहीगश्च सर्वाञ्जम् वयम् सर्वाश्च यातु धान्यः असौ यस्ताम्र अरुण उत बभ्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेण इमहे असौ यो वसर्पति नीलग्रीवो विलोहितः उदैनम् गोपा अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वा भूतानि स दृष्टो मृणयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीनुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः रमञ्च धन्वनस्त्वमुभयोराग्नियोर्जाम् याच्च ते हस्त इषव पराता भगवो वप अवतत्य धनुःस्वगुम् सहस्राक्षशतेषु ते निशीर्य शल्यानामुका शिवो नः सुमना भव विज्यम् धनुः कपर्दिनो विशल्य पाणवागुम् उत अनेशन्नस्येशव आपुलस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय कृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् ऋणक्तु विश्वतः अथो यिषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकार्णिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः। namo hiranyamahavese nanye dishancha pataye namo namo vrikshebhyo harikeshebhyo pashunam pataye namo namastasve jarayatve shivate patinam pataye namo namo bablushaya vivyadine nanam pataye namo namo harikeshayopavitine pushtanam pataye namo namo bhavasya hetye jagatam pataye namo namo rudraya tatavine kshetranam pataye namo nama sutaya hanyayavananam pataye namo namo rohitayasta pataye vrikshanam pataye namo namo mantrine vanijaya kakshanam pataye namo namo bhuvantaye varivaskritaya oshadhinam pataye namo nama utshairgoshaya krandayate patinam pataye namo nama krishnavitaya dhavate sattvanam pataye namaha namasamanaya nivyadhina avyadhininam pataye namo nama kagubaya nishangine selanam pataye namo namo nishangina ishodhimate taskaranam pataye namo namo vanchate parivanchate stayunam pataye namo namo nicherave paricharayaranyanam pataye namo nama sikavibhyo jigagum sadbhyo mushnatam pataye namo namo sivadbhyo naktam charadbhyo kakrindanam pataye namo nama ushnishine giricharaya kulunchanam pataye namo nama ishumadbhyo dhanvavibhyascha vo namo nama adhanvanebhyo pratidadanebhyascha vo namo nama ayachabhyo vitrujabhyascha vo namo namosyadbhyo vidyabhyascha vo namo nama asinebhyascha yanebhyascha vo namo nama svapadbhyo jagradbhyascha vo namo namastishtadbhyo davabhyascha vo namo nama savabhyastavavadibhyascha vo namo namo ashrebhyo shvavadibhyascha vo namaha nama avyadhinibhyo vividhyantebhyascha vo namo nama ugadabhyastrigumhadibhyascha vo namo namo gritsebhyo gritsavadibhyascha vo namo namo vradebhyo vradapadibhyascha vo namo namo ganebhyo ganapadibhyascha vo namo namo virupebhyo vishvarupebhyascha vo namo namo mahadyah chullakebhyascha vo namo namo ratibhyo ratebhyascha vo namo namo ratebhyo ratapadibhyascha vo namo namasenabhyasenanibhyascha vo namo namah kshatrubhyas sangahetrubhyascha vo namo namastakshabhyo ratakarebhyascha vo namo namah kularebhyah karmarebhyascha vo namo namah punjishtebhyo nishadebhyascha vo namo nama ishukradbhyo dhanvakradbhyascha vo namo namo mrigayobhyashvanibhyascha vo namo namashvabhyashvapadibhyascha vo namaha नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रुतिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मेडुष्टवाय जेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाचिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्वाय च नमो जगन्याय च बुद्धियाय च नमः सोऽभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुलताय च नमः शौराय चावबिन्दते च नमो वर्मिणे च वरोदिने च नमो बिल्विने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो दृष्टवे च प्रमशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेशुधिमते च नमः तीक्ष्णे च वेचायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः श्रोत्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युद्याय च नमः इन्द्रियाय चातप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च रुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो अन्ते चानीयते च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः षष्ट्याय च वेण्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः केगुंशिलाय च क्षयनाय च नमः कपद्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्म्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय चाभिघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानागुम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रावे अन्धरस्वते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभिर्वारो वो येषाम् किञ्चन ममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजेतया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नश्यमशद्विपदे च दुष्पदे विश्वम् पुष्टङ्गामे अस्मिन्ननातुरम् नृडानो रुद्रो तनो मयस्कृदिक्षयद्वीराय नमसा विदेमते यच्चञ्चयोश्च मनुराय जे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रवामितो वदे अविष्मन्तो नमसा विदेवते आलाते गोर्न उत पोरुषग्ने क्षयद्वीराय सोम् नमस्वेते अस्तु रक्षा च नो अदि च देव ब्रूयदा च नः शर्व यच्च विवर्हा सुहिश्रुतम् दत्त सदञ्जुवानम् मृगन्न भीममुपहत्वमुग्रम् मृळा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्मृणत्वपरित्वेशस्य दुर्मतिरगायोः अवस्थिरा मगवद्भ्यस्तनुश्वमीर्व स्तोकायतनयाय मृणया मीडुश्चमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निदाय कृत्तिम् वसान आचरपि नाकम् बिभ्रदागहि विकीर्त विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रलाबाहुवोस्तव हेतयः ताचामीशानो भगव पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा अलिभूम्या तेषागुम् सहस्रयो जने वधन्वानि तन्मसे अस्मिन् महत्यर्णवेन्दरिक्षे भवा अरे नीलग्रीवाशितिकण्ठा शर्वालः क्षमाचराः नीलग्रीवाशितिकण्ठालिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु तस्मिन् जला नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्तवर्तिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम् पतिरक्षय ऐलभृदाय व्युदः ये तीर्थानि प्रचरन्ति शिखावन्तो निषङ्गिणः एतावन्तस्य भूयागुंसस्य दिशो रुद्राविदस्तिरे तेषागुंसहस्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वादो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशोदेचेर्दशोद्वास्तेभ्यो नमस्ते नो वृणयन्तु तेयम् विश्वो यस्य नो द्वे स्थितम् भोजम् वे ददामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् भृत्योन्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधेषु यो रुद्रो विश्वा भुवनाधिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्योर्मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरति रुद्रो वारिशान्तकः तेनान्येनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु ह्यस्वशस्वदन्वायो विश्वस्य क्षयदिवेशजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे रजोयगु शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोष सेवावद्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे शोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च महाधीतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च महोजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मे गानि च मे स्थानि च मे परोगुंसि च मे शरीराणि च मे जैष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मे मश्च मे म्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे द्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमानम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शरं च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्छ मे ज्ञातं च मे सोश्च मे प्रसोश्च मे शीलं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च औद्धिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मेनं च मे शुच्च मे ब्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे शामकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे सीतं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च आपश्च मे मेरुधश्च ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे ओषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंसश्च मेऽन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतो ग्रहाश्च मेते ग्राह्याश्च म ऐन्द्राग्रश्च मे वैश्वदेवश्च मे मरुत्वतेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सामित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीवतश्च मे हार्योजनश्च मे यद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्ठयाश्च मे शुचश्च मे चमसाश्च मे रावणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आतवनीयश्च म आग्रेद्रम् च मे अविर्दानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेतश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे दित्यवाच्च मे दित्यौहि च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहि च मे पष्टवाच्च मे पष्टौहि च म उक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पता गुश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंसच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मेऽष्टाविगुंसतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मे अष्टाचत्वारिगुंशच्च मे वाजश्च प्रथवश्च पिजश्च क्रतुश्च सुवा श्च मूर्धा च व्यश्नेयश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इरा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्त तामदानिषगुंसिषद्विश्वे देवासोऽष्टवाच पृथिवीमातर्मामाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु मदन्तु शान्ति शान्ति शान्तिः ॐ तच्छयो रात्रिमहे गातुं यज्ञाय गातुं यज्ञपदये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यदिष्टदशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्छ भव्यम् उतामृतत्वस्येषानः यदन्नेनातिरोहति एतावानस्य महिमा अथोऽज्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् यत्क्रामत् साशनानशने अभि तस्मात् विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म यद्म शरद्भविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तम् यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्या ऋषयश्च ये तस्मात्यज्ञात् सर्वहुतः सम्भृतम् वृषदाज्यम् पशुगुस्तागुश्चग्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्मात्यज्ञात् सर्वहुतः रचः सामानि जज्ञिरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मात् जायत तस्मादश्वा अजायन्त एकेचो भयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यददुः कथिता व्यकल्पयन् मुखम् किमस्य कौ बाहो का वोरुपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहो राजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्र अजायत चन्द्रमा मनसो जातः चक्षोस्सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पद्याम् भूमिर्दिश श्रोत्रात् तथा लोकागम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन् यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च दस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः अद्भ्यः सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्ततादि तस्य त्वष्टा विददद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य देहाः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रीश्च ते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याक्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये देवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वा कृमे हन्मे कण्वेन जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीनागुम् राजा अप्येषागस्तपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुयमस्य जम्भयोः आदधामिथ चाहि तत् खण्फण्ब्रसे ॐ शान्ति शान्ति शान्तिः ॐ नासदासेनो सदासे तदानीम् नासेत्रचो नो व्योमा परोयत् किमावरेवः कुहकस्य शर्मन् अम्बः किमासीत् ग्रहरङ्गभीरम् न मृत्युरमृतम् तर्हिणा रात्र्या अह्न आसीत् प्रकेतः आनीतवातग्स्वदया तदेकम् तस्माद्धान्यपरपरकिञ्चनासा तम आसीत्तमसा गूढमग्रे प्रकेतम् सलिलघुम् सर्वमा इदम् तुच्छेनाबभितम् यदासीत् तमसस्तन्महिना जायतैकम् कामस्तदग्रे समवर्तताधे मनसोरेतः प्रथमम् यदासीत् सतो बन्धुमसति निरविन्दन् हृदि प्रदेश्या कवयो मनीषा तिरश्चेनो विततो रश्मिरेषाम् अधस्विदासे धुपरिस्विदासे रेतोधासन् महिमान आसन् स्वदा अवस्तात् प्रयते परस्तात् को अद्दा वेदकैः प्रवोचत् कुत आजाता कुतय्यम् विसृष्टिः अर्वाग्देवा अस्य विसर्जनाय अथा को वेदयत आबभूव इयम् विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न यो अस्याध्यक्ष परमे व्योमन् सो अङ्गवेद यदि वानवेद ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः भृगुर्वै वारुणिः अरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तस्मादेतत्प्रोवाच अन्नम् प्राणम् चक्षुश्रोत्रम् मनोवाचमिति तगुम्होवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ते यत्प्रयञ्जभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति सतपोतप्यता सतपस्तप्त्वा अन्नम् ब्रह्मेति व्यजानात् अन्नाद्येव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नम् प्रयञ्जभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणम् पितरमुपससार अधीः भगवो ब्रह्मेति तगुम्होवाच तपसा ब्रह्म विजिज्ञासस्व तपो ब्रह्मेति स तपोदप्यता सतपस्तत्त्वा प्राणो ब्रह्मेति व्यजानात् प्राणाद्येव खल्विमानि भूतानि जायन्ते ప్రాణేన జాతాని జీవంతే ప్రాణం ప్రయంజభి సంవిశంతే తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీ భగవో బ్రహ్మేతే తగుంభోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతే సతపోదప్యత సతపస్తత్వా మనో బ్రహ్మే దివ్యజానాత్ మనసో హ్యేవ ఖల్విమాని భూతాని జాయంతే మనసా జాతాని జీవంతే మన ప్రయంజభి సంవిశంతే తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీ భగవో బ్రహ్మేతే తగుంహోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతే సతపోదప్యత సతపస్తత్వా విజ్ఞానం బ్రహ్మే దివ్యజాలాల్ విజ్ఞానాదేవ ఖల్విమాని భూతాని జాయంతే విజ్ఞానేన జాతాని జీవంతే విజ్ఞానం ప్రయంజభి సంవిశంతే తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీ భగవో బ్రహ్మేతే తగుంభోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతే సతపోదప్యత సతపస్తత్వా ఆనందో బ్రహ్మే దివ్యజానాల్ ఆనందాదేవ ఖల్విమాని భూతాని జాయంతే ఆనందేన జాతాని జీవంతే ఆనందం ప్రయంజభి సంవిశంతే సైషా భార్గవీ వారుణీ విద్యా పరమే వ్యోమన్ ప్రతిష్ఠితా ఏవం వేద ప్రతిష్టతే అన్నవానందాదో భవతి మహాన్ భవతి ప్రజయా పశుభిః బ్రహ్మవర్చసేన మహాన్ కీర్త్యా అన్నం నరింద్యాత్ తద్వ్రతం ప్రాణో వా అన్నం శరీరమన్నాదం ప్రాణే శరీరం ప్రతిష్ఠితం శరీరే ప్రాణ ప్రతిష్ఠితః తదేతదన్నమన్నే ప్రతిష్ఠితం సయ ఏతదన్నమన్నే ప్రతిష్ఠితం వేద ప్రతిష్ఠతే అన్నవానన్నాదో భవతి మహాన్ భవతి ప్రజయా పశుభిః బ్రహ్మవర్చసేన మహాన్ కీర్త్యా అన్నం న పరిచక్షేత తద్వ్రతం ఆపో వా అన్నం జ్యోతిరన్నాదం అప్సుజ్యోతి ప్రతిష్ఠితం జ్యోతిష్యావ ప్రతిష్ఠితాః తదేతదన్నమన్నే ప్రతిష్ఠితం సయ ఏతదన్నమన్నే ప్రతిష్ఠితం వేద ప్రతిష్ఠతే అన్నవానందాదో భవతి మహాన్ భవతి ప్రజయా పశుభిః బ్రహ్మవర్చసేన మహాన్ కీర్త్యా అన్నం బహుకుర్వీత తద్వ్రతం పృథివీ వా అన్నం ఆకాశోన్నాదః పృథివ్యామాకాశ ప్రతిష్ఠితః ఆకాశే పృథివీ ప్రతిష్ఠితా తదేతదన్నమన్నే ప్రతిష్ఠితం సయ ఏతదన్నమన్నే ప్రతిష్ఠితం వేద ప్రతిష్ఠతే అన్నవానన్నాదో భవతి महान् भवति प्रजया पशुभिर् ब्रह्मवर्चसेना महान् कीर्त्या न कञ्चन वसतौ प्रत्याचक्षीता तद्व्रतम् तस्माद्ययाकया च विधया बह्वन्नम् प्राप्नुयात् अराज्यस्म अन्नमित्याचक्षते एतद्वै मुखतोऽन्नगुम्राद्धम् मुखतोऽस्म अन्नगुम्राध्यते एतद्वै मध्यतोऽन्नगुम्राद्धम् मध्यतोऽस्म अन्नगुम्राध्यते एतद्वान्ततोऽन्नगुम्राद्धम् अन्ततोऽस्म अन्नगुम्राध्यते य एवम् वेदा क्षेम इति वाचे योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषे समाज्ञाः अथ दैवेः तृप्तिरिति वृष्ठौ बलमिति विद्युते यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपस्ते सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीता प्रतिष्ठावान् भवति तन्मह इत्युपासीता महान् भवति तन्मन इत्युपासीता मानवान् भवति तन्नम इत्युपासीता नम्यन्ते स्मै कामाः तद्ब्रह्मेत्युपासीता ब्रह्मवान् भवति तद्ब्रह्मणः परिमर इत्युपासीता पर्येण म्रियन्ते द्विषन्तः स पत्नाः पर्ये प्रिया भ्रातृव्याः स यश्चायम् पुरुषे यश्चासावादित्ये स एकः स य एवंवित् अस्माल्लोकात् प्रेत्या एतमन्नमयमात्मानमुपसङ्क्रम्य एतम् प्राणमयमात्मानमुपसङ्क्रम्य एतम् मनोमयमात्मानमुपसङ्क्रम्य एतम् विज्ञानमयमात्मानमुपसङ्क्रम्य एतमानन्दमयमात्मानमुपसङ्क्रम्य इमान् लोकान् कामानि कामरूप्यनुसञ्चरन् एतत् सामगायन्नास्ते हा हा अहमन्नमहमन्नमहमन्नम् अहमन्नादो हमन्नादो हमन्नादः अहग्श्लोककृदः गश्लोककृदः गश्लोककृत् अहमस्मि प्रजमजारिकास्य पूर्वम् देवेभ्यो अमृतस्य ना भायि यो मा ददाति सै देवमाह अहमन्नमन्नमदन्तमाद्मि अहम् विश्वम् भुवनमभ्यभवाम् सुवर्णज्योति य एवम् वेद इत्युपनिषत् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीम् महेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः sukhino bhavantu. Om shanti shanti shanti.